यस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधि सभायाः ह्यस्तन दिवसाय आहूतः उपवेशः सूचनां प्रकाश्य स्थगितकृतो वर्तते। ह्य दिवा एकवादनाय निर्धारिते उपवेशे एमसीसी नाम्न्याः अमेरिका देशीय सहयोग परियोजना संविधायाः विषय सैद्धान्तिक विमर्शनाय कार्यसूची निर्धारिता आसीत्। ह्यस्तन दिवसीयोपवेशः विशेष कारणवशात् उपवेष्टुम् अशक्तः इति ज्ञापयित्वा अपरोपवेशः स्व रविवासराय आहूतोऽस्ति। नेकपा माओवादी केन्द्रेण सत्तारूढ गठबन्धने स्थित्वा एव एमसीसी संविधान निष्कर्षे प्रापयितुं निर्णीतं वर्तते। अध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य खुमलटारवर्तिनी निवासे ह्य उपविष्टेन शीर्ष नेतृणाम् अनौपचारिकोपवेशेन संविधानस्य रक्षार्थं संघटितं गठबन्धनं विघटय्य अग्रेगमनस्य विषयः देशजनतयोः हिते न भवतीति हेतोः गठबन्धनस्य रक्षणाय बलं प्रदत्तं वर्तते। उपवेशेन एमसीसी संविधायाः कतिपयेषु प्रावधानेषु दलस्य असहमतिः सत्यपि इमं विषयं निष्कर्षं प्रापयित्वा गठबन्धनं रक्षयितुं निर्णीतमिति माओवादी केन्द्रस्य नेता हरिबोल गजुरेलः अज्ञापयत्। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः भासते एमसीसी संविधायाः विषये देशस्य जनतायाश्च हितं ध्यात्वा अग्रे वर्धितव्यम्। कैलाली जनपदीयेन समाजवादी प्रेस संघटनेन ह्यो धनगढ़ी स्थाने आयोजिते पत्रकार सम्मेलने नेता नेपालः अवदत् एमसीसी परियोजनायाः भूमेः स्वामित्वं नेपालस्य भवितव्यं, परियोजनायां वृत्त्युपार्जनस्य अधिकारः नेपाली जनतया प्राप्तव्यश्चेति विषये आत्मनः दलस्य च धारणा वर्तते। यथास्थितौ एमसीसी संविधा कर्तुं न शक्यते इति नेता नेपालः समस्पष्टयत्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति राष्ट्रहितस्य विपरीतं कार्यं एमाले दलं कदापि न करोति। नेकपा एमाले दलस्य गण्डकी प्रदेश समित्या ह्य पोखरा स्थाने आयोजिते कार्यक्रमे अध्यक्ष ओली यथास्थितो एमसीसी संविधा पारिति कर्तुं न शक्यते इति समस्पष्टयत्। अध्यक्ष ओली आरोपयत् विवादयुतेन सत्ता गठबन्धनस्य सर्वकारेण देशस्य कृते उचितः निर्णयः कर्तुं न शक्यते। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः निगदति नेपालस्य विकासाय एमसीसी परियोजना आवश्यकी वर्तते इत्यतः संविधेयं पारिति कर्तव्या। तनहु जनपदस्य रूपाकोट स्थाने आयोजिते कार्यक्रमे वरिष्ठ नेता पौडेलः आरोपयत् एमसीसी संविधायाः विषये अनावश्यक भ्रमः प्रसारितो वर्तते। कार्यक्रमे नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य शंकर भण्डारी अभासत विकास न केवलं समाघोषे एव सीमिति कर्तव्य अपितु राजनीत्या सह संयोज्य अग्रे वर्धितव्यम्। नेकपा एमाले दलेन स्थानीय स्तराणां निर्वाचनस्य प्रयोजनाय निर्वाचनायोगे दलं पञ्जीकारितं वर्तते। एमाले दलस्य महासचिवस्य शंकर पोखरेलस्य नेतृत्वस्य समूहेन ह्य निर्वाचनायोगं प्राप्य स्थानीय स्तराणां निर्वाचनस्य प्रयोजनाय दलं पञ्जीकारितं वर्तते। तदवसरे महासचिवः पोखरेलः स्वस्य दलं निर्वाचनस्य पूर्व कार्य संलग्नम् स्थिति चर्चयन् अन्य राजनैतिक दलानि अपि निर्वाचनस्य प्रक्रियायां संलग्नानि भवितुम् आह्वयत्। महासचिवः पोखरेलः स्थानीय स्तराणां निर्वाचनस्य पूर्व कार्याय एव एमाले दलेन सम्प्रति आराष्टमेव निर्वाचन केन्द्रतः प्रशिक्षणस्य कार्यक्रमः सञ्चालितोऽस्तीति अज्ञापयत्। नेपाल सर्वकारेण विश्वकोषेण सह अब्जद्वयस्य चतुर्दशानां कोटीनां च रूप्यकाणां सौविध्यपूर्ण ऋण संविदा विहितास्ति। ह्य अर्थ मन्त्रालये आयोजिते कार्यक्रमे अर्थसचिवः मधु कुमार मरासिनी विश्वकोषस्य राष्ट्रिय निर्देशकः फारिस हदाद जर्बोश्च संविदायां हस्ताक्षरितवन्तौ। ऋणमेतत् कोविड 19 विषाणोः प्रतिरोधिनः टीकाकरणस्य क्रयणाय उपयोक्ष्यते इति अर्थमन्त्रालयेन ज्ञापितमस्ति। तदवसरे अर्थसचिवः मरासिनी कोविड 19 महामार्या सृष्टायां परिवर्तनशीलायां परिस्थित्यामपि नेपालेन प्रभावकारी रूपेण प्रतिकार्यस्य कार्याय नैरन्तर्यं प्रदत्तमस्तीति अज्ञापयत्। कोषस्य राष्ट्रिय निर्देशक जर्वश्च विश्वकोषात् प्राप्यमाणेन ऋणेन नेपालस्य विपुल जनसंख्यायै टीकाकरणस्य व्यवस्था भविष्यतीति विश्वासं व्यक्तवान्। स्वास्थ्य जनसंख्या मन्त्रालयेन वैदेशिक वृत्त्युपार्जनाय विदेशम् गन्तुकामानाम् श्रमिकाणाम् कोरोना विषाणोः पीसीआर विधेः परीक्षणम् निःशुल्कम् विधातुम् निर्णीतमस्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य मन्त्रीस्तरीयोपवेशेन वैदेशिक वृत्त्युपार्जनाय गन्तुकामानाम् श्रमिकाणाम् कोरोना विषाणोः संक्रमणस्य परीक्षणम् निःशुल्कम् विधातुम् निर्णीतमिति स्वास्थ्य मन्त्रिणः संचार परामर्शदाता सन्तराम बिडारी ज्ञापितवान्। एतस्य अनुसारेण काष्ठमण्डपस्य वीर चिकित्सालयात्, हुतात्म शुक्र राज ट्रपिकल संक्रामक रोग चिकित्सालयात्, राष्ट्रिय जनस्वास्थ्य प्रयोगशालायाश्च श्रमिकाः निःशुल्कम् पीसीआर विधिना परीक्षणं कर्तुं शक्नुवन्ति। सर्वां प्रक्रियां प्रपूर्य गृहीत यात्रा अनुमति पत्राणां श्रमिकाणां निःशुल्कं परीक्षणं प्रारब्धमस्ति। राष्ट्रिय सभायाः अध्यक्षः गणेश प्रसाद तिमल सिन्हा कोविड उनविंशतेः प्रतिरोधिनः टीकाकरणस्य आधानाभियाने कर्णाली मधेस प्रदेशयोः संघीय सर्वकारेण विशेषाभियानं संचालनीयम्। विश्व स्वास्थ्य संगठनस्य प्राविधिक सहयोगेन स्वास्थ्य जनसंख्या मन्त्रालयस्य आयोजनायाञ्च कोविड उनविंशति संक्रमण विषयिण्याम् ह्य सुर्खेत जनपदे सम्पन्नायाम् अन्तरक्रियायाम् अध्यक्ष तिमल सिन्हा अगदत् सर्वेषाम् स्तराणाम् जनप्रतिनिधिभिः एकवारम् पुनः स्वस्व ग्रामम् प्रत्यावृत्य टीकाकरणाधानस्य वातावरणम् स्रष्टव्यम्। ह्य आराष्ट्रम् अतिरिक्तेषु 75 जनेषु कोरोना संक्रमणम् पुष्टिभूतम् वर्तते। ह्य आराष्ट्रम् अतिरिक्तः 55.5% जना कोरोना संक्रमणात् मुक्ताः सन्ति। कोरोना संक्रमणेन ह्य एको जनः मृत इति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितम् वर्तते। शिक्षा विज्ञान प्रविधि मन्त्रिणा देवेन्द्र पौडेलेन शिक्षायाम् सुधाराय शिक्षा क्षेत्रे वित्तस्य वर्धनस्य विषये राष्ट्रिय योजनायोगस्य उपाध्यक्षेण सह विमृष्टम् वर्तते। ह्य राष्ट्रिय योजनायोगस्य उपाध्यक्षेण डा विश्वनाथ पौडेलेन सह मन्त्रिणा पौडेलेन शिक्षाया क्षेत्रे आयव्ययकस्य आकारवृद्धये विमृष्टम् वर्तते। विमर्शनस्य क्रमे मन्त्री पौडेलः उच्चशिक्षायै प्राविधिक शिक्षायै विज्ञान प्रविध्योः विकासाय च न्यूनतोऽपि प्रतिशतम् विंशत्या आयव्ययकम् वर्धितुम् अन्वरुणत। विमर्शने राष्ट्रिय योजनायोगस्य उपाध्यक्ष विश्वनाथ पौडेलः शिक्षायाम् आयव्ययकस्य वर्धनानन्तरम् सुदूरपश्चिम क्षेत्रस्य कर्णाली क्षेत्रस्य च विद्यालयानाम् गुणस्तरवृद्धये कार्यम् विधातुम् मन्त्रिणम् पौडेलम् अन्वरुणत। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री प्रेमबहादुर आले कथयति पर्यटकीय क्षेत्राणि प्राप्ताये प्रयुज्यमानानाम् मार्गाणाम् स्तरवृद्धेः कार्यम् शीघ्रम् अग्रे वर्धाप्यते। कैलाली कञ्चनपुर डडेलधुरा जनपदानाम् संगमे स्थितस्य प्रसिद्ध पर्यटकीय क्षेत्रस्य नायल स्थानम् प्राप्तो मन्त्री आले अवदत् पर्यटक क्षेत्राणाम् योजकानाम् सौविध्ययुतानाम् मार्गाणाम् निर्माणाय स्तरवृद्धये च सत्वरम् प्रयासो विधास्यते। नेपालगंज स्थानस्य नेपाल भारतयोः जमुनाः सीमा प्रवेश बिन्दो ह्य सायंकालाद् पूर्णरूपेण पिधापितो वर्तते। भारतस्य बहराइच श्रावस्ती प्रवृत्तिषु सीमावर्ती जनपदेषु स्व विधानसभायाः निर्वाचनम् विधातेति कारणेन जमुनाः सीमा प्रवेश बिन्दो परश्व 16 दिवसम् यावत् पिधापितोऽस्ति इति समाचारः।